अथ षोडशः सर्गः ततः किराताधिपतेरलघ्वीम् आजिक्रियाम् वीक्ष्य विवृद्धमन्युः स तर्कयामास विविक्ततर्कः चिरम् विचिन्वन्निति कारणानि तत इति ततः अनन्तरम् किराताधिपतेः सम्बन्धिनीम् अलघ्वीम् गुरुवीम् आजिक्रियाम् रणकर्म वीक्ष्य विवृद्धमन्युः विवृद्धकोपः विविक्तः निष्कलङ्कः तर्कः ऊहः ज्ञानम् वा यस्य सः अर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन् विमृशन् इति इत्थम् वक्ष्यमाणप्रकारेण तर्कयामास अभ्यूहितवान् अथ त्रयोविंशतिश्लोकैः वितर्कमेव आह मदश्रुतिश्यामितगण्डलेखाः क्रामन्ति विक्रान्तनराधिरूढाः सहिष्णवो नेहयुधामभिज्ञाः नागानगोच्छ्रायमिवाक्षिपन्तः मदेत्यादि इह अस्मिन् युद्धे मदश्रुतिभिः मदप्रवाहैः श्यामाः कृताः श्यामिताः गण्डलेखाः कपोलभागाः येषाम् ते विक्रान्ताः पराक्रमम् कुर्वन्तः कर्तरि तः शूरो वीरश्च विक्रान्तः इत्यमरः तैः नरैः अधिरूढाः सहिष्णवः रणभरक्षमाः युधाम् युद्धानाम् अभिज्ञाः शिक्षिताः इत्यर्थः कृद्योगात् कर्मणि षष्ठी किञ्च नगानाम् उच्छ्रायम् पर्वतानाम् औन्नत्यम् घयन्तेन उपसर्गस्य समासः नोपसृष्टात् घञ्प्रत्ययः श्रिणीभुवोऽनुपसर्गे इत्यत्र अनुपसर्ग इति निषेधात् आक्षिपन्तः प्रतिषेधयन्त इव स्थिताः तथा उन्नताः इत्यर्थः नागाः गजाः इह सङ्ग्रामे न क्रामन्ति न चरन्ति यथा युद्धान्तरेष्विति शेषः एवम् उत्तरत्रापि सर्वत्र द्रष्टव्यम् तथापि कथम् मे शक्तिह्रासः अयमिति सर्वत्र तात्पर्यार्थः विचित्रया चित्रयतेव भिन्नाम् रुचम् रवेः केतनरत्नभासा महारथौघेन न सन्निरुद्धा पयोदमन्द्रध्वनिना धरित्री विचित्रेति विचित्रया नानावर्णया केतनानाम् रत्नानि तेषाम् भासा प्रभया भिन्नाम् संवलिताम् रवेः रुचम् कान्तिम् चित्रयता विचित्रवर्णाम् कुर्वतेव स्थितेनेति केतनौन्नत्यनिमित्तेयम् उत्प्रेक्षा पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महताम् रथानाम् ओघेन समूहेन धरित्री न सन्निरुद्धा नावृता समुल्लसत्प्रासमहोर्मिमालम् परिस्फुरच्छामरफेन पङ्क्ति विभिन्नमर्यादमिघातनोति नाश्वीयमाशाः जलधेरिवाम्भः समुल्लसदिति इह युद्धे प्रासाः कुन्ताः प्रासस्तु कुन्तः इत्यमरः ते महोर्मय इव तेषाम् मालाः समुल्लसन्त्यः यत्र तत् समुल्लसत्प्रासमहोर्मिमालम् चामराणि फेना इव चामरफेनाः तेषाम् पङ्क्तयः परिस्फुरन्त्यः चामरफेनपङ्क्तयः यत्र तत्तथोक्तम् अश्वीयम् अश्वसमूहः वृन्दे त्वश्वीयमाश्ववत् इत्यमरः जलधेः अम्भः इव विभिन्नमर्यादम् उच्छृङ्खलम् यथा तथा आशाः दिशः नातनोति नावृणोति हताहतेत्युद्धत भीमघोषैः समुज्झिता योद्धृभिरभ्यमित्रम् न हेतयः प्राप्ततडित्विषखे विवस्वदंशुज्वलिताः पतन्ति हतेति हत प्रहरत आहत विध्यत हन्तेर्लोट् मध्यमपुरुष बहुवचनम् अनुदात्तोपदेश इत्यादिना अनुनासिकलोपः आहतेत्यत्र कर्मणः प्रयोगासम्भवेऽपि हन्तेः स्वाभाविकसकर्मकत्वस्य अनपायात् अकर्मकत्वस्य च अत्र विवक्षितत्वेन कर्मनिवृत्त्यैव तन्निवृत्तेः आङो यमहनः इत्यात्मनेपदम् इत्येवम् उद्धताः प्रगल्भाः भीमाश्च घोषाः येषाम् तैः योद्धृभिः योधैः अभ्यमित्रम् अमित्रानभि समुज्झिताः मुक्ताः विवस्वतः अंशुभिः प्रतिफलितैरिति भावः ज्वलिताः दीपिताः अत एव प्राप्ताः तडिताम् त्विष इव त्विषः याभिः ताः हेतयः शस्त्राणि खे न पतन्ति समुल्लसन्तः न दृश्यन्ते इत्यर्थः हेति स्यादायुधे इति विश्वः अभ्यायतः सन्ततधूमधूम्रम् व्यापिप्रभाजालमिवन्तकस्य रजः प्रतूर्णाश्वरथाङ्गनुन्नम् तनोति न व्योमनिमतरिष्वा अभीति अभ्यायतः वीरान् गन्तुम् अभ्यागच्छतः इणः शत्रुप्रत्ययः अन्तकस्य कालस्य सम्बन्धि सन्ततम् सततम् धूमवद्धूम्रम् व्यापि व्यापकम् प्रभाजालमिव स्थितम् प्रतूर्णैः वेगवद्भिः अश्वैः रथाङ्गैः रथचक्रैश्च नुन्नम् प्रेरितम् रजः मातरिष्वा मरुत् व्योमनि अन्तरिक्षे न तनोति न विस्तारयति भूरेणुना रासभधूसरेण तिरोहिते वर्त्मनि लोचनानाम् नास्त्यत्र तेजस्विभिरुत्सुकानाम् अह्निप्रदोषस्सुरसुन्दरीणाम् भूरेणुरिति अत्र आहवे रासभः गर्दभः तद्वत् धूसरेण ईषत्पाण्डुना रासभो गर्दभः खरः इत्यमरः ईषत्पाण्डुस्तु धूसरः इति च भूरेणुना रजसा लोचनानाम् वर्त्मनि चक्षुर्मार्गे तिरोहिते सति तेजस्विभिः तेजस्विषु वीरेषु उत्सुकानाम् वीरवर्णार्थम् आगतानामित्यर्थः प्रसितोत्सुकाभ्याम् तृतीया च इति विकल्पात् तृतीया सुरसुन्दरीणाम् अह्नि दिवसे एव प्रदोषः रात्रिमुखम् नास्ति अन्धकारवत्वात् दृष्टेः तिरोधानात् रात्रिभ्रमः स्यादिति भावः रथाङ्गसङ्क्रीडितमश्वघेषाः बृहन्ति मत्तद्विपबृंहितानि सङ्घर्षयोगादिव मूर्च्छितानि ह्रादम् निगृह्णन्ति न दुन्दुभीनाम् रथाङ्गेति रथाङ्गसङ्क्रीडितम् रथचक्रकूजितम् अश्वानाम् च हेषा ह्रेषितानि शब्दितानि अश्वानां हेषा ह्रेषा च निःस्वनः इत्यमरः बृहन्ति महान्ति मत्तद्विपानां बृंहितानि बृंहितं करिगर्जितं इत्यमरः सङ्घर्षयोगादिव परस्परस्पर्धासम्बन्धादिव मूर्च्छितानि वृद्धिं गतानि सन्ति नपुंसकमनपुंसक इत्यादिना नपुंसकैकशेषः दुन्दुभीनां भेरीणां ह्रादं निर्घोषम् स्वाननिर्घोषनिर्ह्राद इत्यमरः न निगृह्णन्ति न तिरस्कुर्वन्ति अस्मिन् यशःपौरुषलोलुपानाम् अरातिभिः प्रत्युरसं क्षतानाम् मूर्च्छान्तरायं मुहुरुच्छिनत्ति नासारशीतं करिषीकराम्भः अस्मिन्निति अस्मिन् रणे यशःपौरुषयोः लोलुपानां गृध्नूनाम् अत एव अरातिभिः प्रत्युरसम् उरसि प्रतेः उरसः सप्तमीस्थात् इति समासान्तः क्षतानां विद्धानां सम्बन्धिनम् मूर्च्छैव अन्तरायः रणविघ्नः तम् आसारशीतम् वर्षधाराशीतलम् धारासम्पात आसारः इत्यमरः करिणाम् शीकर एव अम्भः कर्तृ मुहुः नोच्छिनत्ति न नाशयति अश्रृङ्नदीनामुपचीयमानैः विदारयद्भिः पदवीम् ध्वजिन्याः उच्छ्राय मायान्ति न शोणितौघैः पङ्कैरिवाश्यानघनैस्तटानि असृगिति असृक् नदीनाम् तटानि उपचीयमानैः उपचयम् नीयमानैः तथा ध्वजिन्याः पदवीम् विदारयद्भिः दुःसञ्चाराम् कुर्वद्भिः विदूरयद्भिः इति पाठे विदूराम् दूरसञ्चाराम् कुर्वद्भिः आस्यानाः ईषत् शुष्काः संयोगादेः आतोधातोर्यण्वतः इति श्यायतेः निष्ठानत्वम् घनाः सान्द्राः तैः आस्यानघनैः शोणितौघैः पङ्कैः इव उच्छ्रायम् वृद्धिम् नायान्ति न प्राप्नुवन्ति परिक्षते वक्षसि दन्तिदन्तैः प्रियाङ्कशीता नभसः पतन्ति नेहप्रमोहम् प्रियसाहसानाम् मन्दारमाला विरलीकरोति परीति इह रणे दन्तिदन्तैः गजदन्तैः परिक्षते ताडिते वक्षसि नभसः पतन्ति प्रियायाः अङ्क इव शीता शीतला सुखकरी मन्दारमाला सुरैः मुक्तेति शेषः प्रियम् साहसम् येषाम् तेषाम् प्रियसाहसानाम् यतः गजाभियायिनाम् इति भावः प्रमोहम् प्रहारमूर्च्छाम् न विरलीकरोति न मन्दीकरोति नापनयतीति यावत् निषादिसन्नाहमणिप्रभौघे परीयमाणे करिषीकरेण अर्कत्विषोन्मीलितमभ्युदेति न खण्डमखण्डलकार्मुकस्य निषादीति करिणाम् शीकरेण पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनः हस्त्यारोहाः हस्त्यारोहा निषादिनः इत्यमरः तेषाम् सन्नाहाः कवचानि तेषां मणिप्रभौघे रत्नांशुजाले अर्कस्य त्विषा तेजसा उन्मीलितं उत्पादितं आखण्डलकार्मुकस्य इन्द्रधनुषः आखण्डलसहस्राक्षः इत्यमरः खण्डं नाभ्युदेति महीभृता पक्षवतेव भिन्नाः विगाह्य मध्यं परवारणेन नावर्तमाना निनदन्ति भीमम् अपां निधेराप इव ध्वजिन्यः महीति पक्षवता सपक्षेण महीभृता मैनाकेन इव परवारणेन शत्रुगजेन मध्यं विगाह्य प्रविश्य भिन्नाः शोभिताः ध्वजिन्यः सेनाः ध्वजिनी वाहिनी सेना इत्यमरः अपां निधेः सागरस्य आप इव आवर्तमानाः भ्रमन्त्यः सत्यः स्यादावर्तोम्भसां भ्रमः इत्यमरः भीमं न निनदन्ति महारथानं प्रतिदन्त्यनीकम् अधिस्यदस्यन्दनमुत्थितानाम् आमूललूनैरतिमन्युनेव मातङ्गहस्तैर्व्रियते न पन्थाः महारथानामिति प्रतिदन्त्यनीकम् दन्तिसैन्यम् प्रति अनीकम् तु रणे सैन्ये इति विश्वः अधिस्यदाः महारयाः स्यन्दनाः रथाः यत्र तत्तथा रंहस्तरसी तु रयस्यदः इत्यमरः उत्थितानाम् प्रस्थितानाम् महारथानाम् रथिकविशेषाणाम् आत्मानम् सारथिम् चाश्वान् रक्षन् युध्येत यो नरः स महारथसंज्ञः स्यात् इत्याहुर्नीतिकोविदाः इति लक्षणात् पन्थाः मार्गम् आमूलम् लूनैः छिन्नैः मातङ्गहस्तैः नागकरैः अतिमन्युना अतिक्रोधेनेव न व्रियते न निरुध्यते धृतोत्पलापीड इव प्रियायाः शिरोरुहाणाम् शिथिलः कलापः न बर्हभारः पतितस्य शङ्कोः निषादिवक्षस्थलमातनोति धृतेति पतितस्य वक्षसि मग्नस्य शङ्कोः तोमरस्य सम्बन्धी वा पुंसि शल्यम् शङ्कुः ना सर्वला तोमरोस्त्रियाम् इत्यमरः बर्हभारः तन्मूलबद्धः लाञ्छनपिच्छकलापः धृतः उत्पलापीडः कुवलयशेखरः यस्मिन् सः प्रियायाः सम्बन्धी शिथिलः स्रस्तः शिरोरुहाणाम् कलापः केशपाशः इव निषादिनः हस्त्यारोहस्य वक्षस्थलम् नातनोति न व्याप्नोति